इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः सायं गुजरातस्य अहमदाबादं सम्प्राप्तवान्। अद्य श्रीमोदी प्रधानमन्त्री सूर्यगृह निःशुल्क विद्युत योजनायाः लाभार्थिभिः सह संवादं करिष्यति, तथा च गांधीनगरस्य महात्मा मन्दिरे नवीकरणीय ऊर्जा सम्मेलनस्य चतुर्थ संस्करणस्य उद्घाटनं करिष्यति। अद्य सायंकाले श्रीमोदी अहमदाबादनगरे 8,000 कोटितोप्यधिक मूल्यानां बहुविकास परियोजनानां उद्घाटनं कृत्वा आधारशिलां च स्थापयिष्यति। सहैव प्रधानमन्त्री अहमदाबाद गांधीनगरयोः मेट्रो रेल यान विस्तारस्य द्वितीय चरणं अपि ध्वजं प्रदर्शयिष्यति। गतरात्रौ वेस्ट पाम बीच फ्लोरिडा नगरस्य ट्रम्प नेशनल गोल्फ क्लब इत्यत्र तस्य समीपे भुशुण्डी प्रहारस्य सूचना प्राप्तेः अनन्तरं पूर्व अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः सुरक्षितः इति सः उक्तवान्। ट्रम्पस्य अभियान संचार निदेशकेन स्टीवन चेंग इत्यनेन उक्तं यत् यदा भुशुण्डी प्रहारस्य ध्वनि श्रुता तदा ट्रम्पः गोल्फ क्रीडांगणे एव आसीत्। नाइजीरिया देशे ह्यः देशस्य उत्तर पश्चिमीय भागे नौका दुर्घटनायां न्यूनातिन्यूनम् 41 जनाः मृत्युमुपगताः, 12 जनाः उद्धारिताः। जामफारा राज्यस्य गुम्मी नगरस्य समीपे एकस्यां नद्यां 50 यात्रिभिः चालकदलैः च सह वहन्ती काष्ठनौका जलमग्ना भवत्। ईद मिलाद उल नवी अद्य देशस्य विभिन्न भागेषु धार्मिक भावनया सह मान्यते। पैगम्बर मुहम्मदस्य जन्मदिवसः मिलाद उल नवी इति नाम्ना आचर्यते। राष्ट्रपति द्रौपदी मुर्मू वर्या जनेभ्यः ईद मिलाद उल नवी पर्वणः शुभकामनाः दत्तवती। राष्ट्रपतिः मुर्मू वर्या एकस्मिन् सन्देशे प्रोक्तवती यत् पैगम्बर मोहम्मदः विश्वं प्रेम्णः शान्तेः च सन्देशं प्रायच्छत्। तस्य शिक्षाः अस्मान् भातृभावनया परस्परमेलनेन च सहजीवनं यापयितुं प्रेरयन्ति। पश्चिमबंगे आरजी कर चिकित्सा महाविद्यालयस्य चिकित्सालयस्य च पूर्व प्राचार्यः संदीप घोषः ताला पुलिस स्थानकस्य पूर्व प्रभारी अधिकारी अभिजीत मण्डलः च त्रयाणां दिवसानां सीबीआई निग्रहे प्रेषितौ। रविवासरे सियालदाह न्यायालये तयोः प्रस्तुतीकरणं भविष्यति। अवधेयं वर्तते यत् सीबीआई संस्थया शनिवासरे रात्रौ आरजी कर दुष्कर्म हत्या प्रकरणे उभौ अभियुक्तौ गृहीतौ। जम्मूकश्मीरे प्रथमचरणीय विधानसभा निर्वाचनस्य प्रचारः द्रुतगत्या प्रचलति। अस्मिन् चरणे अस्य मासस्य 18 दिनांके 24 विधानसभाक्षेत्राणां कृते निर्वाचनं भविष्यति। भाजपायाः वरिष्ठः नेता तथा च केन्द्रीय गृहमन्त्री अमितशाहः अद्य चेनाब उत्पत्यकायां रामवन कस्तवार पद्दर क्षेत्रेषु त्रीणि जनसभाः सम्बोधयिष्यति। जम्मूमण्डलस्य चेनाब उत्पत्यकायाः 8 विधानसभाक्षेत्रेषु प्रथमचरणे निर्वाचनं भविष्यति। बैडमिंटन क्रीडायां भारतस्य क्रीडिका अनमोल खरबः बेल्जियम देशस्य लुवेन नगरे 24,000-2,000 वर्षस्य बेल्जियम अन्तर्राष्ट्रिय क्रीडायां महिला एकल स्पर्धायां विजयं प्राप्य प्रथमं निज वरिष्ठ अन्तर्राष्ट्रिय उपाधिं सुरक्षितवती। हॉकी एशियाई चैम्पियनशिप अद्य चीनदेशस्य हुलुनबुइर नगरे 24,000-2,000 वर्षस्य एशिया चैम्पियंस चषक प्रतिस्पर्धायाः उपान्त्यचक्रीय क्रीडायां भारतं दक्षिण कोरिया दलं सम्मुखीकरिष्यति। इति वार्ताः।